इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः छत्तीसगढ़स्य बिलासपुरमण्डले मोहभट्टायां ₹7,33,000 crore बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासं राष्ट्राय समर्पणं च विहितम्। अस्मिन् अवसरे जनसभां संबोधयन् प्रधानमन्त्रिणा उक्तं यत् छत्तीसगढ़स्य नक्सल प्रभावित क्षेत्रेषु स्थिर शान्तेः नवयुगं दृश्यते। अस्मिन् अवसरे प्रधानमन्त्री आवास योजनायाः ग्रामीणवर्गस्य 3,00,000 यावत् लाभार्थिनां गृहप्रवेशोऽपि भवत्। प्रधानमन्त्रिणा अस्याः योजनायाः 3,00,000 लाभार्थिभ्यः गृहाणां कुञ्चिकाः समर्पिताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः आकाशवाणीतः प्रसार्यमाणे मन की बात इत्येतस्मिन् कार्यक्रमे उक्तवान् यत् वस्त्रापशिष्टानां समाह्वानानि समग्रविश्वाय व्याकुलतायाः एकं बृहत्तमं कारणं विद्यते। असौ प्रावोचत् यत् 1% अल्पानां वस्त्रापशिष्टानां नवीनवस्त्रेषु पुनर्चक्रणं भवन्तीति। अनेनोक्तं यत् भारतं विश्वस्य तृतीयो देशो विद्यते यत्र सर्वाधिकं वस्त्रापशिष्टम् अपसारितं भवति। परञ्च हर्षस्य विषयोऽयं विद्यते यत् अस्माकं देशे एतेभ्यः समाह्वानेभ्यः निवारणाय अनेकाः प्रशंसनीयप्रयासाः विधीयन्ते। अत्रावधौ जलसंरक्षणविषये प्रवदन् प्रधानमन्त्री सन्तोषं प्रकटितवान् यत् विविधेषु राज्येषु जलसञ्चय सम्बद्धेषु कार्येषु तीव्रता समागतास्ति। श्रीमोदिना अग्रे कथितं यत् अस्मिन्नेव वर्षेऽपि कैच द रेन इत्यस्मै अभियानाय युद्धस्तरे व्यवस्थाः सम्पादिताः। श्रोतृञ्च समाहूतवान् यत्ते इदमभियानं जनान्दोलनत्वेन निर्मातुं कार्यं कुर्वन्तु इति। अशेषे देशे अद्य ईद उल फित्र पारम्परिकरीत्या आमान्यते। जनैः ईदगाह मस्जिद तीर्थस्थलेषु नमाज प्रार्थिताः। अवसरेऽस्मिन् द्रौपदी मुर्मूवर्या देशवासिनः ईद उल फित्र इत्यस्य शुभकामनाः प्रसारिताः। श्रीमत्या मुर्मूवर्यया भणितं यत् ईद पर्व परस्पर हर्ष वितरण पर्व विद्यते। पर्व इदं एकता सद्भाव सौहार्द भावनां विवर्धयति। एतेन सहैव उपराष्ट्रपतिनापि देशवासिनः सुभाषिताः। उत्तराखण्डस्य श्रीगंगोत्री धाम्नः द्वारस्य उद्घाटनम् अस्मिन् वर्षे अप्रैलमासस्य 30 दिनांके प्रातः 10:30 अक्षयतृतीयायाः अवसरे भविष्यति। श्रीगंगोत्रीमन्दिरसमित्या मुखवासायाम् एकस्याम् सभायाम् एतस्य आशयस्य निर्णयः कृतः। श्रीयमुनोत्रीधाम्नः द्वाराणि अपि तस्मिन् दिने उद्घाटितानि भविष्यन्ति। यमुनोत्रीधाम्नः द्वारोद्घाटनस्य समयस्य घोषणा यमुनाजयन्त्यावसरे यमुनोत्रीमन्दिरसमित्या अप्रैलतृतीयदिनांके क्रियते। श्रीबद्रीनाथ केदारनाथ मंदिर समित्याः वार्ता प्रभारी डॉ हरीश गौरः उक्तवान् श्री बद्रीनाथ एवं श्री केदारनाथ धाम्नोः द्वाराणि उद्घाटनस्य तिथि समयः च पूर्वमेव प्रसारितं वर्तते। श्री बद्रीनाथ धाम्नः द्वारं मई 4 दिनांके प्रातः 6 केदारनाथ धाम्नः द्वारं मई 2 दिनांके प्रातः 7 उद्घाटितं भविष्यति। आईपीएल इत्यस्याम् क्रिकेट क्रीडा मालिकायाम् गुवाहाट्याः बरसापारा क्रिकेट क्रीडांगणे गतरात्रौ राजस्थान रॉयल्स इत्यनेन दलेन चेन्नई सुपर किंग्स इत्येतम् दलम् 6 पराजितम्। अपरत्र दिल्ली कैपिटल्स दलेन सनराइजर्स हैदराबाद इत्येतम् दलम् 7 पराजितम्। प्रतियोगितायाम् अद्य मुम्बय्याः वानखेड़े क्रीडांगणे मुम्बई इंडियंस दलं कोलकाता नाइट राइडर्स दलं सम्मुखीकरिष्यति। इति वार्ताः।